इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिकः ललितमोहनः तिवारी आदौ मुख्यवार्ताः प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उक्तं यत् महती वैश्विक अनिश्चिततासु भारतम् अभूतपूर्वं निश्चिततायाः चरणं साक्ष्यं करोति यत् पूर्वं न दृष्टमिति राजकोटनगरे कच्छ सौराष्ट्रप्रदेशयोः कृते द्विदिवसीय वैब्रेंट गुजरात क्षेत्रीय सम्मेलनस्य उद्घाटनानन्तरं श्रीमोदी सम्बोधयन् आसीत् प्रधानमन्त्री नरेन्द्रमोदी नागरिकैः एकत्रीभूय देशस्य विभाजनार्थं षड्यन्त्रं कुर्वाणः सर्वासां शक्तीनां पराजेतुम् आहूतवान् सामाजिकान्तर्जालीयेन मञ्चेन एक्स इत्यनेन स्वस्य दोषः अंगीकृतः अपि च एक्स इत्यनेन उक्तं यत् ते प्रवर्त्यमानेन विधिना विनियमैः च कार्यं करिष्यन्ति गुजरातस्य वडोदरा नगरे तिसृणाम् एकदिवसीय क्रिकेट श्रृंखलायां प्रथमायां स्पर्धायां भारतस्य सम्मुखे एकोत्तर त्रिशत् धावनांकानां लक्ष्यं समुपस्थापितम् महिला प्रीमियर लीग क्रिकेट क्रीडायाम् अद्य सायंकाले नवी मुंबई नगरस्य डॉ डीवाई पाटिल क्रीडा अकादम्यां दिल्ली कैपिटल दलं गुजरात जॉयंट्स दलं सम्मुखीकरिष्यति अथ वार्ताः विस्तरेण प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उक्तं यत् महती वैश्विक अनिश्चिततासु भारतम् अभूतपूर्वं निश्चिततायाः चरणं साक्ष्यं करोति यत् पूर्वं न दृष्टमिति राजकोटनगरे कच्छ सौराष्ट्रप्रदेशयोः कृते द्विदिवसीय वैब्रेंट गुजरात क्षेत्रीय सम्मेलनस्य उद्घाटनानन्तरं श्रीमोदी सम्बोधयन् आसीत् स अवदत् यत् भारतं विकसितराष्ट्रं भवितुं द्रुतगत्या अग्रे गम्यमानः अस्ति एतत् लक्ष्यं साधयितुं परिष्काराः महत्वपूर्णां भूमिकां निर्वहन्ति प्रधानमन्त्री भारते सौराष्ट्र कच्छ प्रदेशयोः च निवेशं कर्तुम् उद्योगनेतृभ्यः आग्रहम् अकरोत् निवेशनार्थम् इदमेव उचितः समयः इति वर्णितवान् अस्मिन् अवसरे प्रधानमन्त्रिणा सौराष्ट्रस्य सप्तमण्डलेष् त्रयोदश नूतनानि ग्रीनफील्ड स्मार्ट इण्डस्ट्रियल एस्टेट क्षेत्राणि उद्घाटितानि सहैव राजकोटनगरे विशिष्टस्य चिकित्सा उपकरण उद्यानस्य उद्घाटनम् अपि कृतम् जनसमूहं सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् अद्य वैब्रेंट गुजरात शिखर सम्मेलनं वैश्विकवृद्धे अन्ताराष्ट्रिय सहयोगस्य सहभागित्वस्य च सुदृढः मञ्चः अभवत्
ग्लोबल ग्रोथ इंटरनेशनल कोऑपरेशन और पार्टनरशिप का एक मजबूत प्लेटफॉर्म बन गई है बीते सालों में ग्लोबल पार्टनर्स की संख्या लगातार बढ़ती गई है और समय के साथ ये समिट इंक्लूजन का भी बहुत बड़ा उदाहरण बन गई है यहाँ कॉरपोरेट ग्रुप के साथ साथ कोऑपरेटिव्स एमएसएमई स्टार्टअप मल्टीलेटरल और बायलेटरल संगठन इंटरनेशनल फाइनेंशियल इंस्टीट्यूशंस सभी एक साथ संवाद करते हैं चर्चा करते हैं गुजरात के विकास के साथ कंधे से कंधा मिलाकर चलते हैं
अस्मिन् अवसरे भारतीय कोट्यधिपति व्यवसायी तथा च रिलायंस इंडस्ट्रीज लिमिटेड इत्यस्य अध्यक्ष प्रबंध निदेशक च मुकेश अंबानी गांधीनगरे वैब्रेंट गुजरात इत्यस्य विंशति वर्षाणां सफलताया स्मरणार्थम् आयोजिते सम्मेलने भागग्रहणाय कृतज्ञतां प्रकटितवान् प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसां कुर्वन् सः अवदत् यत् स्वतन्त्र भारतस्य इतिहासे कदापि देशेन साम्प्रतिक आशां चैतन्यं च न दृष्टमिति भारतीय कोट्यधिपति व्यवसायी तथा विल्सपन वर्ल्ड इत्यस्य संस्थापकः अध्यक्षः च बालकृष्ण गोपी राम गोयंकावर्यः अधोरेखितवान् यत् कच्छप्रदेशः विश्वस्य बृहत्तमायै गृहवस्त्रसंस्थायै प्रसिद्धः भविष्यति तेन गुजरातस्य मुखं नवीनीकर्तुं प्रधानमन्त्रिणः प्रयत्नान् दूरदृष्टिं नेतृत्वं च प्रशंसितम् अस्माकं संवाददात्रानुसारं सम्मेलनं कच्छ सौराष्ट्रप्रदेशयोः कृते मञ्चरूपेण कार्यं करोति यत्र मोरबीनगरे सेरेमिक्स राजकोटनगरे अभियान्त्रिकी समुद्रतटस्य पार्श्वे विस्तृतानि नौकाश्रयानि रसदसम्पर्कजालम् इत्यादीनि महत्वपूर्णानि क्षेत्राणि लक्ष्यीकृतानि सन्ति वैश्विकसहभागित्वस्य प्राधान्यता अस्ति यस्मिन् जापानदेशः दक्षिणकोरियादेशः रवाण्डादेशः युक्रेनदेशः च हरित ऊर्जायाः पेट्रोरसायनस्य कृषिसंस्करणस्य च अवसरान् अन्वेष्टुं सहभागीदेशरूपेण भागं गृहीतवन्तः इतः पूर्वं गुजरातराज्यस्य यात्रायाः द्वितीये दिवसे प्रधानमन्त्री नरेन्द्रमोदी अद्य अपराह्णे राजकोटनगरे वैब्रेंट गुजरात ट्रेड एक्जिबिशन इत्यस्य उद्घाटनं विहितवान् अष्टादश सहस्र वर्ग मीटर मितस्य विशालक्षेत्रे प्रसारिता एषा भव्य प्रदर्शनी विकास नवीनीकरणस्य च जीवन्तम् उदाहरणमस्ति कृषि खाद्य प्रसंस्करण मत्स्यपालनम रक्षा ऊर्जा पेट्रोकेमिकल्स लॉजिस्टिक चेत्यादि क्षेत्रेषु स्व अत्याधुनिक क्षमतानां प्रदर्शयितुं चतुश्शततः अधिकाः प्रदर्शकाः नगरे एकत्रिताः सन्ति एतत् अतिरिच्य टॉरेंट पावर लिमिटेड, कोसोल, अडानी ग्रीन, एसआर ग्रुप चेत्यादयः समवायः सम्मिलिताः सन्ति। अद्य प्रातः प्रधानमंत्री नरेन्द्र मोदी सोमनाथ मण्डलस्य प्रभासपाटन क्षेत्रे ऐतिहासिके सोमनाथ स्वाभिमान पर्वे भागं गृहीतवान्। अस्मिन् अवसरे श्रीमोदी भव्य शौर्य यात्रायाः नेतृत्वं कृतवान्। सोमनाथ मन्दिरस्य रक्षणं कुर्वन्तः असंख्य योद्धानां कृते श्रद्धाञ्जलिं समर्पयितुम् अष्टोत्तरैकशत संख्यकानां अश्वानां शोभायात्रा आयोजिता। आदेशात् सहस्राधिकाः श्रद्धालवः अस्यां शोभायात्रायां भागं गृहीतवन्तः। अस्मिन् अवसरे एकां जनसभां सम्बोधयता प्रधानमन्त्री नरेन्द्र मोदी, नागरिकैः एकत्रीभूय देशस्य विभाजनार्थं षड्यन्त्रं कुर्वाणः सर्वासां शक्तीनां पराजयितुम् आहूतवान्।
वो ताकते मौजूद है, पूरी तरह सक्रिय है, जिन्होंने सोमनाथ पुनर्निर्माण का विरोध किया, और इसलिए हमें ज्यादा सावधान रहना है, हमें खुद को शक्तिशाली बनाना है, एकजुट रहना है, ऐसी हर ताकत को हराना है जो हमें बांटने की साजिशें रच रही है।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् श्रीमद् विजयरत्न सुन्दर सुरीश्वरजी महाराज्ञा ज्ञानं केवलं पुस्तकेषु एव सीमितं न कृतम्, अपि तु स्वस्य जीवने तत् प्रदर्शितम्। सः अन्यान् अपि एवं कर्तुं प्रेरयत्। आध्यात्मिक गुरुः जैनभिक्षु च श्रीमद् विजयरत्न सुन्दर सुरीश्वरजी महाराज्ञः पञ्चशततमस्य पुस्तकस्य विमोचने स्वस्य चलचित्र सन्देशे श्रीमोदी अवदत् यत् तस्य व्यक्तित्वम् आत्मनियन्त्रणस्य सरलतायाः स्पष्टतायाः च अद्भुतं मिश्रणम् अस्ति इति।
महाराज साहब ने ज्ञान को सिर्फ ग्रंथों तक सीमित नहीं रखा है, बल्कि जीवन में उतार कर दिखाया है, औरों को भी जीवन में उतारने के लिए प्रेरित किया है। उनका व्यक्तित्व संयम, सरलता और स्पष्टता का अद्भुत संगम है।
सामाजिक अंतर्जालीयेन मंचेन एक्स इत्यनेन स्वस्य दोषः अंगीकृतः, अपि च तस्य विषयवस्तु मितव्यय मानकेषु न्यूनता अंगीकृता। सर्वकारीय स्रोताः सूचितवन्तः यत् एक्स इत्यनेन उक्तं यत् ते प्रवर्त्यमानेन विधिना विनियमैः च कार्यं करिष्यन्ति। सूचना प्रसारण मन्त्रालयेन एक्स इत्यस्मै संचेतना प्रदानानन्तरं एषा समस्या प्रकाशिता अभवत्। बांग्लादेशे अन्यः एकः हिन्दु युवकः मृतः येन धार्मिक अल्पसंख्यकानां विरुद्धं हिंसायाः चिन्ताधिका अभवत्। सुनमगंजस्य डेराई उपमण्डले अवैतनिक मोबाइल देय ऋणमूल्यनां विवादस्य अनन्तरं शुक्रवासरे सिलहट नगरस्य एकस्मिन् चिकित्सालये विषम सेवनानन्तरं 29 वर्षीयस्य जाय महापात्रायाः मृत्युः अभवत्। जॉय इत्यस्य परिवारेण आरोपितं यत् बुरहानपुर ग्रामस्य आपणिकेन अमीरुल इस्लामेन क्रेडिट इति माध्यमेन कृतस्य देयराशि खण्डस्य विलम्बे सह ताडितः अपमानितः च। केन्द्रीय गृहमन्त्री अमितशाह त्रिवन्तपुरम नगरे आगामि नगरपालिका निर्वाचनमाधृत्य मिशन 26th वर्षम् इत्यस्य लोकार्पणं विहितवान्। स उक्तवान् यत् भारतीय जनता पार्टी इति दलं विकसित केरलस्य निर्माणार्थं कार्यं कुर्वदस्ति। अस्य दलस्य उद्देश्यं राज्य भाजपेति दलस्य सत्तायाः शासनं वर्तते। तिरुवनन्तपुरम नगरे नगरपालिका निर्वाचने निर्वाचितानां भाजपा सदस्यानां राज्यसम्मेलने स अवदत् यत् विकसित भारतस्य मार्गः विकसित केरलात् अग्रे सरति। पुरुष क्रिकेट क्रीडायां न्यूजीलैंड दलेन गुजरातस्य वडोदरा नगरे तृष्णाम् एकदिवसीय क्रिकेट श्रृंखलायाः प्रथमायां स्पर्धायां भारतस्य सम्मुखे 1,30,00 धावनांकानां लक्ष्यं समुपस्थापितम्। न्यूजीलैंड देशः निर्धारित 15 क्षेपकचक्रेषु 8 स्तोभानां हानौ 300 धावनांकानि समर्जितानि। महिला प्रीमियर लीग क्रिकेट क्रीडायाम् अद्य सायंकाले नवी मुंबई नगरस्य डॉक्टर डी वाई पाटिल क्रीडायाम् क्रीडा अकादम्यां दिल्ली कैपिटल्स दलं गुजरात जॉयंट्स दलं सम्मुखी करिष्यति। क्रीडा सायं 7:30 आरब्धा भविष्यति। इति वार्ताः।